इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अद्य नवदिल्ल्यां भारत न्यूजीलैंड देशौ ऐतिहासिकं मुक्त व्यापार समन्वये हस्ताक्षरं कृतवन्तौ। पश्चिम बंगाल राज्ये विधानसभा निर्वाचनस्य द्वितीयांतिम चरणाय प्रचाराभियानम् अद्य सम्पन्नम्। भारतस्य सर्वोच्च न्यायालयेन अद्य एकस्याः महिला अधिवक्तायाः उपरि तस्याः पतिना कृत क्रूरतया उत्पीडने स्वयमेव अवधानं स्वीकृतं। त्रयः चिकित्सालयाः तस्याः आपत्कालिकोपचाराय निराकृतवन्तः इति आरोपस्य अन्वेषणाय आदेशोऽपि प्रदत्तः। बांग्लादेशे कालबैशाखी इत्यनेन वातचक्रेण 14 जनाः मृताः, अन्ये च अनेके व्रणिताः। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य दिल्ल्याः अरुण जेटली क्रीडांगणे दिल्ली कैपिटल्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। अद्य नवदिल्ल्यां भारत न्यूजीलैंड देशौ ऐतिहासिकं मुक्त व्यापार समन्वये हस्ताक्षरं कृतवन्तौ। वाणिज्य उद्योग मन्त्रिणः पीयूष गोयलस्य, न्यूजीलैंड देशस्य वाणिज्य मन्त्रिणः टोड मैकले वर्यस्य च उपस्थितौ सन्धेः औपचारिकता अभवत्। दिसंबर मासे अन्तिमीकृतः अयं सन्धिः भारतीय निर्यातानां सर्वासु प्रशुल्क रेखासु 100% यावत् शुल्कमुक्तं प्रवेशं प्रददाति। तथैव विभिन्नेषु सेवाक्षेत्रेषु यथा शिक्षायां, स्वास्थ्यसेवायां, गतिशीलतायां, निवेशे च अवसरान् उद्घाटयति। न्यूजीलैंड देशः अपि भारते वृद्धिं, नवान्वेषणम्, उद्योगाञ्च समर्थयितुं 20 बिलियन US डॉलर मितस्य दीर्घकालिकं निवेशं कर्तुं स्वीकृतिः प्रदत्तवान्। दुग्धव्यवसायः, कृषि इत्यादीनि संवेदनशीलक्षेत्राणि संरक्षितानि एव सन्ति। एकस्मिन् सन्देशे प्रधानमन्त्री श्रीमोदी उक्तवान् यत् अयं सन्धिः भारतस्य वैश्विक सहभागितायाम् ऐतिहासिकं सोपानं निर्दिशति, तथा च कृषकाणां, यूनाम्, उद्यमशीलानां तथा MSME इत्येतेषां कृते नूतनानाम् अवसराणां सर्जनं करिष्यति। न्यूजीलैंडदेशस्य प्रधानमन्त्री क्रिस्टोफर लक्सन इत्येषः अपि एनं व्यवहारं विशालः अवसरत्वेन वर्णितवान्, येन अग्रिमे दशके निर्यातस्य विविधीकरणे, व्यापारस्य संवर्धने च साहाय्यं भविष्यति। कार्यक्रमे भाषमाणः श्रीगोयलः अवदत् यत् FTA इतीदं 9 मासेषु एव सम्पन्नम्, यत् दृढं परस्परविश्वासं च प्रतिबिम्बयति। श्रीगोयलेन उक्तं यत् भारतस्य विकसितराष्ट्रस्य लक्ष्यं प्रति एतत् महत्वपूर्णं सोपानमस्ति।
This agreement reaffirms.
ये समझौता हमारे लोकतांत्रिक मूल्यों और द्विपक्षीय संबंधों को मजबूत करने की हमारी प्रतिबद्धता की पुष्टि करता है। कृषि उत्पादकता साझेदारी, उत्कृष्टता केंद्र उत्पादकता और बुनियादी ढांचे में फायदे के लिए न्यूजीलैंड की उन्नत कृषि विशेषज्ञता और भारत की राष्ट्रीय प्राथमिकताओं को एक साथ लाते हैं। इसके साथ ही ये हमारे किसानों और ग्रामीण अर्थव्यवस्थाओं को भी सार्थक लाभ पहुंचाते हैं।
श्री मैकले वर्यः अवदत् यत् अयं सन्धिः निर्यातकेभ्यः प्रमुखाः अवसराः उद्घाटयिष्यति। न्यूजीलैंड देशे च सहस्रशः उद्योगाः कल्पिष्यन्ते। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् अयं सन्धिः ऐतिहासिकः, येन आर्थिक सम्बन्धाः सुदृढाः भविष्यन्ति, निवेशाः च वर्धिष्यन्ति। पश्चिम बंगाल राज्ये विधानसभा निर्वाचनस्य द्वितीयांतिम चरणाय प्रचाराभियानम् अद्य सम्पन्नम्। अस्मिन् चरणे बुधवासरे 8 निर्वाचनमण्डलेषु आहत्य 42,100 आसनानां कृते मतदानं भविष्यति। एतेषु मण्डलेषु कोलकाता उत्तरं, कोलकाता दक्षिणं, हावड़ा, नादिया, उत्तर 24 परगना, दक्षिण 24 परगना, हुगली, पूर्व बर्धमान चास्ति। सर्वेषां प्रमुखाणां दलानां नेतारः मतदातॄन् आक्रष्टुम् अन्तिम प्रयासं कृतवन्तः। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी च बैरागपुरे निर्वाचनसमारोहं सम्बोधितवान्। सः अवदत् यत् भाजपेति दलं पश्चिमबंगस्य सुरक्षावसरान् प्रामाणिकं शासनं च सुनिश्चेतुं करिष्यति। श्रीमोदिना आरोपितं यत् अस्मिन् टीएमसी दलं पूर्णतया विफलः अभवत्। अपरपक्षे टीएमसी नेता अभिषेक बनर्जी हरिम घंटा तथा धनेल खली इत्यत्र जनसभाम् अभिसंबोधितवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य आरभ्य सिक्किम राज्यस्य द्विदिवसीय यात्रायामस्ति। सः अद्य गंगटोक नगरे एकस्मिन् पथ प्रदर्शने भागं भजितवान्। तेन सह राज्यस्य मुख्यमंत्री प्रेम सिंह तमांगः, राज्य भाजपाध्यक्षः डीआर थापा च उपस्थितौ आस्ताम्। श्वः प्रधानमन्त्री गंगटोक नगरस्य आर्किडेरियम इत्यत्र गमिष्यति, यत्र राज्यस्य पारिस्थितिक पुष्प परम्परां प्रदर्शयितुं विश्वस्तरीय आर्किड अनुभव केन्द्रमस्ति। सः पलजोर क्रीडांगणे सिक्किम राज्यस्य 50वें राज्यत्वोत्सवस्य समापन समारोहे अपि भागं ग्रहीष्यति। अस्मिन् अवसरे श्रीमोदी सम्पूर्णे राज्ये 4,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं, शिलान्यासं, लोकार्पणं च विधास्यति। भारतस्य सर्वोच्च न्यायालयेन अद्य एकस्याः महिला अधिवक्तायाः उपरि तस्याः पतिना कृत क्रूरतया उत्पीडने स्वयमेव अवधानं स्वीकृतम्। त्रयः चिकित्सालयाः तस्याः आपत्कालिकोपचारं निराकृतवन्तः इति आरोपस्य अन्वेषणाय आदेशोऽपि प्रदत्तः। मुख्यन्यायाधीशः सूर्यकान्तः, न्यायाधीशः जे जॉयमाल्या बागची इत्येतयोः पीठेन अधिवक्ता स्नेहा कालिता इत्यस्याः पत्रस्य आधारेण कार्याचरणं स्वीकृतम्। यत् कड़कडूमा न्यायालये अभ्यासं कुर्वति स्वसहकर्मिणाम् उपरि आक्रमणस्य विषये वर्णितमासीत्। न्यायालये सूचितं यत् पीडिता बहुवारं व्रणितासीत्। अखिल भारतीय आयुर्विज्ञान संस्थाने उपचारारम्भात् प्राक् सा अनेकेषु चिकित्सालयेषु गतवती, परञ्च ते कथितरूपेण प्रवेशं निराकृतवन्तः। अधिकारिणः उक्तवन्तः यत् एफआईआर पञ्जीकृतं तथा अभियुक्तः पति निगडितः। राज्यसभायां भाजपेति दलस्य सांसदानां संख्या अधुना 13.1% यावत् वर्धिता। केन्द्रीय संसदीय कार्यमन्त्री किरेन रिजिजुः अद्य सामाजिक पटले सूचितवान् यत् उच्चसदनस्य अध्यक्षः सीपी राधाकृष्णनवर्यः आम आदमी इति दलस्य 7 सदस्यानां विलीनीकरणं स्वीकृतवान्। सांसदेषु राघव चड्ढा, डॉ अशोक कुमार मित्तलः, संदीप पाठकः, स्वाति मालीवालः, हरभजन सिंहः च सन्ति। विलयानन्तरं उच्चसभायां आम आदमी इति दलस्य सांसदानां संख्या अधुना 3 एव अभवत्। बांग्लादेशे कालबैशाखी इत्यनेन वातचक्रेण 7 मण्डलेषु विद्युत् पतनेन न्यूनातिन्यूनं 14 जनाः मृताः, अन्ये च अनेके व्रणिताः अभवन्। देशस्य केषुचित् भागेषु एकसप्ताहाधिकं यावत् तीव्र उष्णतरङ्गस्यानन्तरं वातचक्रः आगतः। भारत ऋतुविभागेन आईएमडी इत्यनेन अद्य हरियाणा, चण्डीगढ़, मध्यप्रदेश, पश्चिम पंजाब, राजस्थान, उत्तरप्रदेश, बिहार, छत्तीसगढ़, गुजरात, विदर्भ प्रदेशेषु उष्णतरंगस्य पूर्वानुमानं प्रकटितम्। अद्य राष्ट्रिय राजधान्यां पृथक पृथक स्थानेषु अपि एतादृशेः स्थितेः अपेक्षा अस्ति। अद्य दिल्ली, हरियाणा, चण्डीगढ़, छत्तीसगढ़, पश्चिम मध्य प्रदेशेषु अपि रात्रौ उष्णस्थितेः संभावना भविष्यति इति विभागेन पूर्वानुमितम्। अन्ते क्रीडावार्तायां, आईपीएल क्रिकेट क्रीडायां अद्य दिल्ल्याः अरुण जेटलीति क्रीडांगणे दिल्ली कैपिटल्स दलं रॉयल चैलेंजर्स बेंगलुरु इत्यमुं दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। इति वार्ताः।